एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। देशस्य सप्तानामेव प्रदेशानाम् विभिन्नेषु जनपदेषु अद्यापि झञ्झावातेन शैतायः भीषणवृष्टेः सम्भावना अस्ति। अधुनापि कतिपयस्थानेषु वृष्टिः हिमपातश्च जायमाने स्तः इति जलवायु वातावरण विज्ञान विभागेन ज्ञापितम् वर्तते। विभागेन देशस्य विभिन्नेषु स्थानेषु झञ्झावातेन सहितस्य हिमपातस्य कारणेन मानवीयाया भौतिक्याश्च क्षतेः सम्भावनाया सत्त्वेन उच्चैः सावधानताम् अवलम्बितुं सर्वे अनुरुद्धाः वर्तन्ते। झञ्झावातस्य कारणेन सम्भावितां क्षतिं न्यूनीकर्तुम् अनावश्यकरूपेण गृहात् बहिः न निष्क्रान्तुम् आवश्यक सावधानताम् अवलम्बितुं च विभागेन सर्वे नागरिकाः अनुरुद्धाः वर्तन्ते। जलवायु पूर्वानुमानमाशाखया ह्य आराष्टम् झञ्झावातेन सहिता वृष्टि हिमपातः वज्रपातश्च अभवन्। अयम् क्रमः अद्यापि आदिनम् सम्भवन्तीति ज्ञापितम् वर्तते। महाशाखायाः अनुसारेण श्व रविवासराद् वातावरणम् क्रमशः स्वच्छम् भविष्यतीति संसूचितम् अस्ति। वृष्टेः कारणेन मार्गस्य द्रविभवनात् नारायणघाट बुटवल मार्गखण्डस्य अन्तर्गतम् दाउन्ने क्षेत्रे रात्रौ दिनत्रयम् यावत् यातायात साधनानाम् सञ्चालनम् आंशिक रूपेण निषिद्धम् वर्तते। वृष्टेः कारणेन सम्भावितानाम् दुर्घटनानाम् न्यूनीकरणाय ह्यस्तनदिवसात् स्वयावत् प्रतिदिनम् सायम् सप्तवादनात् पञ्चवादनम् यावत् रात्रौ विपुल यातायात साधनानाम् सञ्चालनम् आंशिक रूपेण निषिद्धमस्तीति नारायणघाट बुटवल मार्गायोजना कार्यालयस्य स्थपति सूचनाधिकारी च विकास खनालः असूचयत। सूचनाधिकारिणः खनालस्य अनुसारेण लघु साधनानि, दीर्घदूरीयाः यात्रीवाहक साधनानि, आकस्मिक सेवायाः यातायात साधनानि तु प्राथमिकतायाः आधारेण सञ्चालयितुम् अनुमतिः प्रदीयमाना अस्ति। नेपाली कांग्रेस केन्द्रीय कार्य समितेः उपवेशे निर्वाचनस्य समीक्षायाः भाविन्याः रणनीतेश्च विषयेषु विमृष्टमस्ति। दलस्य केन्द्रीय कार्यालये ह्य उपविष्टे उपवेशे सभापतेः गगन कुमार थापाविदस्य त्यागपत्रस्य आगामिनः नियमित महाधिवेशनस्य निर्वाचनस्य समीक्षायाः भाविन्याः रणनीतेश्च विषयेषु विमृष्टमस्तीति नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालयस्य कार्यवाहक मुख्य सचिवः कृष्ण प्रसाद दुलालः असूचयत। उपवेशेन सम्प्रत्येव सम्पन्ने निर्वाचने नेपाली कांग्रेस दलेन लब्धम् पराजय जय पराजयौ चक्रवद भवतः इत्येवम् रूपेण स्वीकृत्य निर्वाचनम् सम्पादयितुम् सहयोगम् विहितवद्भ्यः सर्वेभ्यः पक्षेभ्यः धन्यवादः प्रदत्तो वर्तते। उपवेशे सभापतेः थापाविदस्य त्यागपत्रस्य अस्वीकारस्य प्रस्तावे प्रस्तुतेऽपि त्यागपत्रस्य विषये कोऽपि निर्णयो नाभूदिति ज्ञापितम् वर्तते। केन्द्रीय कार्यसमितेः उपवेश श्वरविवासरे पुनवस्तेति कार्यवाहक मुख्य सचिवः दुलालः असूचयत। प्रधानमन्त्रिणा सुशीला कार्किणा प्रतिनिधि सभा सदस्यानाम् निर्वाचनम् शान्तिपूर्णरूपेण सफलम् विधातुम् विहितस्य सद्भावस्य सहकार्यस्य च कृते विशेष धन्यवादः अभिव्यक्तोऽस्ति। गत फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नम् निर्वाचनम् सफलीकर्तुम् भूमिकाम् निर्व्यूढवद्वय कर्मकरेभ्य सुरक्षाकर्मिभ्य नागरिकेभ्यश्च धन्यवादम् ज्ञापयितुम् इह मध्यप्रदेशस्य जनकपुरे आयोजिते कार्यक्रमे प्रधानमन्त्रिणा कार्किणा काठिन्यायाम् अवस्थायामपि शान्तिपूर्णरूपेण निष्पक्षम् व्यवस्थितरूपेण च निर्वाचनम् सफलीकृतम् इति हेतोः सुरक्षानिकायानाम् कर्मकराणाम् च प्रशंसाम् विधाय तेभ्यः धन्यवादः प्रकटितोऽस्तीति प्रधानमन्त्रिणः नैज सचिवालयेन ज्ञापितम् वर्तते। प्रतिनिधिसभाया नवनिर्वाचितानाम् सदस्यानाम् शपथग्रहणम् अस्यैव चैत्रमासस्य आगामिनि द्वादश दिवसे भवितेति संघीय संसद सचिवालयेन ज्ञापितम् अस्ति। सचिवालयस्य अनुसारेण शपथग्रहण कार्यक्रम अस्यैव चैत्रमासस्य द्वादशे दिवसे बृहस्पतिवासरे दिवा द्विवादने सिंहप्रासादवर्तिनी निर्माणाधीनस्य संघीय संसद भवनस्य बहुद्देशीय सभाकक्षे आयोक्ष्यते। शपथग्रहणात् पूर्वम् नवनिर्वाचितेषु सदस्येषु वयसा ज्येष्ठस्य सदस्यस्य निश्चयनम् करिष्यते। तेन च ज्येष्ठसदस्येन राष्ट्रपतिः रामचन्द्र पौडेलस्य समक्षम् प्रतिनिधिसभा सदस्य पदस्य पदगोपनीयतयोः शपथः ग्रहीष्यते। तदनु असौ अन्यान् अवशिष्टान् चतुःसप्तत्युत्तर शतद्वय संख्यकान् सदस्यान् शपथम् ग्राहयिष्यतीति संघीय संसद सचिवालयस्य प्रवक्ता एकराम गिरिः असूचयत्। अत्रान्तरे उपवेशस्य दिने संघीय संसद सचिवालयेन निर्धारितात् समयात् घण्टाद्वय पूर्वमेव औपचारिकं सांस्कृतिकं वा परिधानं धृत्वा उपस्थित्यर्थं सर्वे संसद सदस्याः अनुरुद्धाः वर्तन्ते। अद्य मुस्लिम धर्मावलम्बिभिः तद्धर्मस्य महद ईद उल फित्र इति पर्व हर्षोल्लासेन समाद्रियमाणम् अस्ति। मुस्लिम धर्मावलम्बिभिः एकमासं यावत् विहितस्य रमजान व्रतस्य समाप्तेः अनन्तरं प्रारब्धस्य शुक्लपक्षस्य प्रथमचन्द्र दर्शनस्य अपरे दिने पर्वेदं समायोज्यते। ईद उल फित्र इत्यस्य अर्थ व्रत समाप्ति पर्व अस्ति इति उच्यते। एवमेव अरब पञ्चाङ्गानुसारेण तस्माद् दशममासस्य शौवाल इत्यस्य प्रथमे दिने मुस्लिम धर्मावलम्बिभिः विशेषरूपेण नमाज इति प्रार्थनां कृत्वा ईद उल फित्र पर्व समाद्रियते। शौवाल मासस्य प्रथम दिनात् तृतीय दिनं यावत् पर्वेदं समाद्रियते। एतदवसरे अद्य सर्वकारेण आराष्ट्रं सार्वजनिकावकाशः प्रदत्तोऽस्ति। पश्चिम एशिया क्षेत्रे विकसित घटनाया पश्चात् गन्तव्य देशान् प्रस्थातुम् असमर्थताया पश्चात् विभिन्न देशेषु असहायावस्थां स्थिता नेपालिन अवस्थाया ईषद सहजानन्तरं क्रमशः स्वगन्तव्यं प्रति प्रस्थिता वर्तन्ते। प्रारम्भे दोहा दुबई जिद्दा कुवेतस्थानेषु नगरेषु च अधिक समस्या दृष्टा आसीत्। सम्प्रति दोहा नगरे अथ च दुबई स्थाने एव निश्चिता क्षेत्रे एव समस्याया सत्त्वेन विमानोड्डयनानां प्रारम्भात् तत्र स्थानेषु मध्यमार्गे अवरुद्धा नेपालिन क्रमशः गन्तव्यस्थानं प्रति प्रस्थिता सन्ति। जेद्दा नगरे अवरुद्धा हजयात्रिणोऽपि अस्यैव चैत्रस्य पञ्चमे दिवसे नेपालं प्रत्यागता सन्तीति परराष्ट्र मन्त्रालयेन ह्य पत्रकार सम्मेलनम् आयोज्य ज्ञापितं वर्तते। सर्वोच्च न्यायालयस्य वरिष्ठ न्यायाधीश सपना प्रधान मल्ल जनता केन्द्रिताया न्याय प्रणाल्या संस्थापनं कर्तुं बलं ददाति। ह्यस्तन दिवसात् भक्तपुरे प्रारब्धं महिला विधि व्यवसायीनां द्वात्रिंशं राष्ट्रिय सम्मेलनं सम्बोधयन्ती वरिष्ठ न्यायाधीश मल्ल न्यायपालिकायां विद्यमानं जनविश्वासं रक्षितुं संस्थागतं सुधारं कर्तुं च न्यायालयस्य विधि व्यवसायीनां संघस्य च मध्ये नैरन्तर्येण संवादस्य आवश्यकतां प्रादर्शयत्। न्यायाधीशानां नियुक्तौ उत्थितानां प्रश्नानां विषयं स्पष्टीकुर्वाणा असौ पारदर्शीरूपेण सामर्थ्यस्य आधारेण राजनीतिक हस्तक्षेप मुक्तायै नियुक्त्यै बलं दत्तवती। इति समाचाराः।